शास्त्रोक्त विधि पूर्वक रुद्र पूजन के पश्चात रुद्राभिषेक किया जाता है। रुद्राभिषेक वेद मंत्रों से मंडित शिव आराधना का विशेष आयोजन है। शिव के सहस्राधिक रूपों एवं नामों के उल्लेख के साथ रुद्राभिषेक किया जाता है। वैसे रुद्राभिषेक में सभी देवताओं की स्तुति का समावेश होता है तथा ये देवाधिदेव महादेव सहित सभी देवताओं को समर्पित होता है। विधिपूर्वक रुद्राभिषेक करने से बड़े संकट से मुक्ति मिलती है तथा रोग शोक हानि तथा राज्य भय का अंत होता है। रुद्राभिषेक मंत्र 8 अध्यायों में विभाजित है, जिसके अंत में सुख शांति की प्राप्ति हेतु स्वस्ति वाचन तथा शांति पाठ किया जाता है। रुद्राभिषेक शिव आराधना का सबसे महत्वपूर्ण पूजन विधान है।
ओम त्र्यंबकं हृदयाय नमः। ओम यजामहे शरसे स्वाहा। ओम सुगंधिं पुष्टिवर्धनं शिखाय वौषधं। ओम उर्वारुकं धनात् कवचाय। ओम ओम रक्त्योर्मुक्षीय नेत्रत्रयाय वौषधं। ओम आम्रतास्त्राय भटं। ध्याये नित्यं महेशं रजत गिरिनिभं चारुचंद्रावतंसाम् रत्नाकल्पोज्ज्वलांगं परशुमृगवराभीतिहस्तं प्रसन्नं पद्मासीनं समन्ताविसृतममरगणैः व्याघ्रकृत्तिर्वसानं विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम्। हरि ॐ गणानन्त्वा गणपतिको हवामहे। प्रियानान्त्वा प्रियपतिको हवामहे। निधेनान्त्वा निधिपतिको हवामहे। मतो मम आहमजानि गर्भधमा त्वमयासि गर्भधम्मा गायत्री त्रिष्टुप् जगज्जनष्टुप् पञ्चासः बृहत्स्नेहा ककुप्सो चेभ्यः शम्यन्तु त्वा विपदाजाश्चतुपदा त्रिपदाजाश्च गणपदाः भिच्छन्दाजाश्च सच्छन्दाः शोचेभ्यः शम्यन्तु त्वा सहस्तोमाः सह छन्दस आवृताः सह प्रमार्खयः सप्तदैव्याः पूर्वे कां बन्धमनुगस्य धीरा अन्वादेभिरेरध्यो नरस्मिन्न जजाग्रतो दोरमुदैति दैवम् तदो शुक्रस्य तथैवैति दूरङ्गमं ज्योतिखाञ्ज्योतिरे कन्तन्मे मनः शिवसङ्कल्पमस्तु येन कर्माण्यपसो मनीखिनो यज्ञेन्मन्ति विदधे कुधीराः यदपूर्वं यक्षमन्तः प्रजानन् तन्मे मनः शिवसङ्कल्पमस्तु यज्ञज्ञानमुदचेतो धृतिश्च जज्ज्योतिरं तरवृतं प्रजासु यस्मान्नरते किं जनकर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु येनेदं भूतं भुवनं भविष्यपरिगृहीतममृतेन सर्वं येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु यत्प्रज्ञानमुत चेतो धृतिश्च जज्ज्योतिरन्तरभृतं प्रजातु यस्मान्नरते किं कञ्चन कर्म क्रियते तन्मे मनः शिव सङ्कल्पमस्तु येनेदं भूतं भुवनं भविष्यत् परिगृहीतमृतेन सर्वं येन दत्यस्तायते सप्तभूता तन्मे मनः शिव सङ्कल्पमस्तु यस्मिन्नेजः स्वामजजो गुखिदस्मिन्प्रतिष्ठितारथनाभ विमारः यस्मिंश्चि चक्रो सर्वभूतं प्रजानां तन्मे मनः शिव सङ्कल्पमस्तु सुखारतिरश्वानि भजन् मनुख्यान्ने नेजते भेषुभिर्वाजिन इव रक्षतिष्ठं जगदिरञ्जभिष्ठं तन्मे मनः शिव सङ्कल्पमस्तु हरिः ॐ सहस्रशेरका पुरुखः सहस्राक्षः सहस्रपाद स भूमिको सर्वदृतवात्यधिष्ठद्दशाङ्गोदाम् पुरुख एवेदग्भो सर्वं यद्भूतं यच्च भाव्यं उतामृतमध्ये शानो जदन्येनाधिरोहति एतावानस्य महिमातो व्यायांश्च पुरुखः पादोऽथ विश्वाभूतानि त्रिपादस्यामृतं देवे त्रिपादोर्ध्व उदयत्पुरुखः पादोच्चेह भवत्पुनः ततो विभवन् व्यग्रामक्षाशनाशने अभि ततो विराजायत विराजो अधिपोरुखः सजातो अद्यरिजत पश्यात् भूमिमथो पुराः तस्माद्यज्ञा सर्वभूताः सम्भृतं बृहदाज्यं पशोस्तांश्चक्रे वायव्या नारण्या ग्राम्याश्च ते तस्माद्यज्ञा सर्वभूतरेचाः सामानि यद्भिरे छन्दाघोषे यद्भिरे तस्माद्यजो तस्मादजायत तस्मादवा अजायन्त येषो भयादतः गावो हयद्भिरे तस्मादस्माज्जाता अजावयः तं यज्ञं बर्हिति प्रोक्षन् पुरुखं जातमग्रतः तेन देवा अयजन्त साध्य ऋषयश्च ये यत्पुरुखं जदधोः कतिधाव्यकल्पयन् मुखं किमस्यासे किं बाहो किमोरोपादा उच्येते ब्राह्मणोच्च मुखमासे बाहो राजन्यः कृतः पूरो तदस्य जद्वैषः पद्भ्याघुशोत्रो अजायत चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत श्रोत्राद्वायश्च प्राणस्य मुख रग्निरजायत नाभ्या आसीदन्तरिक्षको शीर्षोद्योः समवर्तत पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाम् अकल्पयन् यत्पुरुखेन हविका देवायज्ञमतन्वद वसन्तोऽस्यासीदाज्यं ग्रेह्म इधमः शरद्धवेः सप्ताजातन् परिधयस्त्रेः सप्त समिधः कृताः देव यज्ञन्तन्वान अवदरन् पुरुखम् पशोम्ब यज्ञेन यज्ञमयजन्त देव तानि धर्माणि प्रथमान्यासन्न देहनाकम् महिमानः सजन्त्र यत्र पूर्वे साध्याः सन्ति देवाः अद्भ्याः संभृताः पृथिव्यैरथा च विश्वकर्मणः समवर्तताग्रे तस्य कष्टाभिदधतरोपमेति तान्मर्जस्यते मत्वमाजानमग्रे वेदाहमेतम् पुरुखम् महान्तमाधिर्यवर्णन्तमसः परस्तात् त्वमेव विदितमाधिप्रद्यो मे दीनान्यः पन्थाविद्यते जनाय प्रजापतिशरति गर्भे अन्तरजायमानो बहुधा विजायते तस्य योनिम् परिपश्यन्ति हीरा तस्मिन्न तस्तुर्भुवनानि विश्व यो देवेभ्य आतपदिजो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मणे रुचम् ब्राह्मन् जनयन्तो देवा अग्रे तदब्रुवन् तस्वैवम् ब्राह्मणो द्वितीया तस्य देवा आतन्वसे श्रीश्च ते लक्ष्मीश्च पत्न्या बहो रात्रे पारस्वे नक्षत्रानिरोपमश्विनौ व्यात्तम् शीतन्यकानामोम् मयि कान सर्वलोकम् मयि कान हरिः ॐ आशोः शिशानो वृषभो न भेमो घनाधनः शोभनश्च रेखनीनाम् चन्द्रन्दनो निमिक एकवीरः ततग्वोषेन अजयत्साकमिन्द्रः चन्द्रन्दनेन निमिखेन जिष्णुना युत्थारेण दुष्यबलेन धृष्णुना तदिन्द्रेण जय तथ हतवं युधो नर इको हस्तेन वृष्णा त इको हस्तैः सनि कञ्जिभिर्वसे सग्मो सृष्टा सयुध इन्द्रो गणेन सग्मो सृष्टदिक्षो मपावा भूषर्युग्रधन्वा प्रतिहिताभिरष्टा बृहस्पते परिदीजारथे न रक्षो हामितराम् अपबाधमानः प्रभञ्जन्सेनाः प्रमृणो युधा जयन्नस्माकमे हवितारथाह्नाम् बलविज्ञायस्तवीराः प्रवीराः सहसवान्वाजि सहमान उग्राः अभिवीरो अभिषद्वासहो जाजै प्रमिन्द्ररथमातिष्ठ गोविद गोत्रविदम् गोविदम् वज्रबाहुम् जयन्तमजम प्रमृदन्तमोजसा इमग्गो सजाता अनुवीरयध्वमिन्द्रगो सखायो अनुसग्भोरभदवम्बम् अभिगोत्र निसहसागहमानो दयो वीरः शतमह्योरेन्द्रः दुष्यवनः प्रीतनाखाडयुध्योऽस्माकग्भो सेना अवतु प्रयच्छो इन्द्र आसान्नेता बृहस्पतिर्दक्षिणा यद्याः पुर एतु सोमः देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो जन्वग्रह्म इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुताग्मुशरध उग्रह्म महामनसां भुवनस्य वानां घोखो देवानां जयता मुदस्थातम् उद्धरे खय मघवन्नायुधान्यो चत्वनां मामकानां मनः घोषिम् उद्रत्रहन् वाजिनां वाजिनां निद्रथानां जयतां जन्तु घोखाः अस्माकमिन्द्रः सम्रथे कुद्वजे त्वस्माकं जायिकवस्ता जयन्तुम् अस्माकं वीरा उत्तरे भवन्त्वस्माम् उदेवा अवताह वेखुम् अमीकां चित्तं प्रतिदो भयन्ति गृहानाङ्गानप्वे परेः अभिप्रेहि निर्धरणशोकै रन्धेना मित्रास्तमसा सचन्तां माम् अवसृष्टा परा पत सर्वे ब्रह्मशक्वं चिते गच्छ मित्रान् प्रपद्यस्व मामीखान् कञ्चनो शिखः प्रीता जयता नर इन्द्रो वः तर्म गच्छतु उग्रा वः सन्तु बाहवो न दृक्ष्या यथा सतम् असौ जातेन मरुतः परे कामभ्यैति न ओजसा वर्धमाना दाङ्गूहत तमसा पव्रतेन जथामि अन्यो अन्यन्न जानन्दं यत्र बाणाः सम्पतन्ति कुमाराभिशिखा इव तन्न इन्द्रो बृहस्पतिरदितेः सर्व गच्छतु विश्वाः सर्व गच्छतु मर्माणि ते भर्मणाख्यादया मि सोमस्वा राजामृतेन नुवस्ताम्बम् उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वा नु देवा मदन्तु हरि ॐ विभ्राड् बृहत्पिबतु सोम्यं मध्वा युर्धदज्ञपता बविरुतं मातयूतो जो अभिरक्षति स्म न प्रजाः उपोखपुरुधा विराजति उदुत्यं जातवेदसं देवं वहन्ति केतवः कृशे विश्वाय सूर्यं येन पावकचक्षसा भुरण्यं तं जनाम् अनु त्वं वरुण पश्यसि दैव्यावध्वर्जो आगतगोरथेन सूर्यत्वचा मत्वा यज्ञको समं जाथे तं प्रत्नथाजं वेनश्चितरं देवानां तं प्रत्नथा पूर्वथा विश्वथे मथा ज्येष्ठता तिम्बरहि खदग्मुस्वर्विदं प्रतीचीनं रजनं दोहसे दुनिमासुं जयन्तमनुजा सुवर्धसे अजं वेनश्चोदयत्प्रश्निगर्भाभ्यो तिर्जरायो रजसोऽभिमानम् इममपाकुसङ्गमे सूर्यस्य शिशुन्न विपरा मतिभिर्हन्ति चित्रं देवानामुदगादनीक कम दक्षर मित्रस्य वरुणस्याग्ने आप्राद्यावा पृथिवे अंतरिक्षकुम सूर्य आत्मा जगतस्थस्थुखश्च आन इडाभिर्विदथे सुषस्ति विषवान्नराः सविता देव एतुम् अपि जथा जुवानो मत्सधानो विश्वं जगदभि पृथिवे मलिका यदत्यगच्छ वृत्रहन्नुदका अभि सूर्य सर्वं तदिन्द्रते वसे तरणिर्विश्वदर्शतो ज्योतिश्रेदसि सूर्य विश्वभासि रोचनं तत्सूर्यस्य देवस्वं तन्महित्वं मध्याकर्तो विततग्भारं यदेदयुक्त हरितः सदस्था दात्राग्रेवासस्तनुते शिवस्मै तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरूपस्थे अनन्तमन्यदुश्चदस्य पाजाः कृष्णमन्यद्धरितः सम्भरन्ति मन्महाम् असि सूर्यवरा दिव्यमहाम् असि महस्ते सतो महिमापनस्य तेद्धा देवमहाम् असि वर्षूर्यस्रवसा महाम् असि तत्रादे महाम् असि मन्ना देवा रामसूर्याः पुरोहितो विभुज्योतिरदाभ्यम् त्रायन्तैव सूर्यं विश्वेदिन्द्रस्य भक्षत वसूनि जाते जनमा न ओजसा प्रतिभागं न दिधिम अद्या देवा उदिता सूर्यस्य निरग्वं हसः पिप्रेता निरपद्यातं तन्नो मित्रो वरुणो मामहन्त मदितिः सिन्धुः पृथिवी उत द्यौः आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च हिरण्ययेन सविता रथेन देवो जाति भुवना निपश्यन्न ॐ भूः ॐ भुवः ॐ स्वाहा हरिः ॐ नमस्ते रुद्रमन्यवहुतो दैखवे नमः बाहुभ्यामुतते नमः जाते रुद्रशिवातनोरघोरा पापकाशिनि तया न सन्वासन्तमया गिरिसन्ताभिजाकशिः यामि कोङ्गिरिशन्तहस्ते विवर्गतवे शिवाङ्गिरितां कुरु माहि गोषेः पुरुखं जगत शिवेन वजसा त्वा गिरिशाच्छावदाहमसि यथा नः सर्वमि जगत जग्मगो सुमना असद अध्यवो तदधिवक्ता प्रथमो दैव्योऽभिखग अहिंस सर्वाङ्गं भयं सर्वाश्चातुधान्यो धराजेः परासुव असौर्यसाम्रो अरुण उत बभ्रुः सुमङ्गलः ये चैन घोरुद्रा अवितो दिक्षुश्रिताः सहस्रशो वैखा गुहे दयीमहे अदोयो सर्वदिने लग्नेव विदोहितः उतैर्नङ्गोपा अदृशन् अदृशन्नुदहार्चः सदृशो मृडयाति नः नमो सुने दग्नेवाय सहस्राक्षायमे दुःखे अथो ये अस्य सद्वानो अन्तेभ्यो करन्नमः प्रमुञ्च घन्वनस्त्वमुभयोरात्योर्जाम्ब याश्च ते हस्तरिखवः पराता भगवो वप विद्यन्धनोः कवर्दिनो विशल्यो मानवामुत अनेतन्नचया इखव आभुरस्य निघङ्गधिः जातेः चर्मे दुष्टमहते बभूवते धनुः तयात्मान् विश्वतश्वमजस्मया परिभुज परिते धन्वनो हेतिरस्मान् वृणक्तो विश्वतः अथो यै कुदितवारे अस्मन्निधेहिताम्ब अवतद्य धनुष्वग्सहस्राक्षसते बुधे निशीर्षल्यानां मुखा शिवो नः सुमना भव नमस्त आयुधाय नाथताय घृष्टवे उवाभ्यामुत ते नमो बाहुभ्यां तव धन्वने मानो महान्तमुतमानो अर्भकम्ब न उक्षन्तमुतमान उक्षिताम्ब मानो वधेः पितरं मोत मातरं मानः प्रियस्तन्वो रुद्रदीरिखः मानस्तो केतनये मान आयुखि मानो भोगो मानो अश्वेभुरीरिखः मानो वीरानुद्रभामिनो वधेर्हविषमन्तः तदमित्वाहवामहे नभो हिरण्यबाहवे सेनान्ये दिशाञ्जपतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः शक्रिञ्जराय निकेपदे पथीनां पतये नमो नमो हरिकेशाय पवेतिने पुष्टानां पतये नमो नमो दुर्दुषाय व्याधिने नानां पतये नमो नमो भवत्य हेते जगगां पतये नमो नमो रुद्राय तदायिने क्षेत्राणां पतये नमो नमः सूताय हन्ते वनानां पतये नमो नमो लोहिताय तपतये वृक्षाणां पतये नमो नमो भुवन्तये वारितस्क्रराय योगधीनां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षानां पतये नमो नम उच्चैर्घोखाय क्रन्दयते पदीनां पतये नमो नमः कृष्णायतया धावते सत्त्वनां पतये नमो नमः सहमानाय नत्याधिन आव्याधिनेनां पतये नमो नमो निखङ्गिने ककुभाय सेनानां पतये नमो नमो निचेरवे परिचराय रण्यानां पतये नमो नमो वञ्चते परिवञ्चते सायूनां पतये नमो नमो निखङ्गिनैकुधिमते तस्कराणां पतये नमो नमः श्रीकायेभ्यो जिघाभुरद्भ्यो मिष्टतां पतये नमो नमो श्रीमद्भ्यो नक्षन्तरद्भ्यो विक्रेन्दानां पतये नमः नम इनेघिने गिरिचराय पुलुञ्जानां पतये नमो नम इकुमद्भ्यो धन्वानि वशवो नमो नम आतन्वानेभ्य ಪ್ರಾಹ ಪ್ರತಿದಧಾನೆ ಯಶವೋ ನಮೋ ನಮ ಆಯ ಸದ್ಯೋ ಸದ್ಯಶವೋ ನಮೋ ನಮೋ ವಿಶ್ರೇಜದ್ಭ್ಯೋ ವಿಶ್ರಭ್ಯಶವೋ ನಮೋ ನಮಃ ಶ್ರೀಪದ್ಭ್ಯೋ ಜಾಗ್ರಭ್ಯಶವೋ ನಮೋ ನಮಃ ಶಯಾನೇಭ್ಯ ಆಸೀನೆ ಯಶವೋ ನಮೋ ನಮಸ್ತಿಷ್ಠಭ್ಯೋ ಧಾವದ್ಭ್ಯಶವೋ ನಮೋ ನಮಃ ಸಭಾಭ್ಯಃ ಸಭಾಪತಿವಶವೋ ನಮೋ ನಮೋ ಸ್ವೇಭ್ಯೋ ಸ್ವಪತಿವಶವೋ ನಮೋ ನಮ ಆವ್ಯಾಧಿನೇಭ್ಯೋ ವಿವಿಧ್ಯಂತಿ ವಶವೋ ನಮೋ ನಮ ಉಗಣ ಜತ್ರಗೋಹತಿ ವಶವೋ ನಮೋ ನಮೋ ದೇಭ್ಯೋ ಗಣಪತಿವಶವೋ ನಮೋ ನಮೋ ಭ್ರಾತೆಭ್ಯೋ ವ್ರಾತಪತಿವಶವೋ ನಮೋ ನಮೋ ಗ್ರಸೇಭ್ಯೋ ಗ್ರಸಪತಿವಶವೋ ನಮೋ ನಮೋ ವಿರೂಪೇಭ್ಯೋ ವಿಶ್ವರೂಪೇವಶವೋ ನಮೋ ನಮಃ ಸೇನಾಭ್ಯಃ ಸೇನಾನಿವಶವೋ ನಮೋ ನಮೋ ರಥಿಭ್ಯೋ ಅರಥೇವಶವೋ ನಮೋ ನಮಃ ಕ್ಷತ್ರಭ್ಯಃ ಸಂಗ್ರಹೀತೃವಶವೋ ನಮೋ ನಮೋ ಮಹದ್ಭ್ಯೋ ಅರ್ವಕೇವಶವೋ ನಮಃ ನಮಸ್ತಕ್ಷಭ್ಯೋ ರಥಕಾರೇವಶವೋ ನಮೋ ನಮಃ ಉದಾಲೇಭ್ಯಃ ಕರ್ಮಾನೇವಶವೋ ನಮೋ ನಮೋ ನಿಖಾರೇಭ್ಯಃ ಪುಣ್ಯಕ್ಷೇವಶವೋ ನಮೋ ನಮಃ ಶನಿಭ್ಯೋ ಮೃಗಯುಭ್ಯಶವೋ ನಮೋ ನಮಃ ಸ್ವಭ್ಯಃ ಸ್ವಪತಿವಶವೋ ನಮೋ ನಮೋ ಭವಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ಶರ್ವಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮೋ ನೀಲಗ್ರೀವಾಯ ಚ ಶಿಶಿಗಂಧಾಯ ಚ ನಮಃ ಕವರ್ತಿನೇ ಚ ಉತ್ತರಕೇಶಾಯ ಚ ನಮಃ ಸಹಸ್ರಾಕ್ಷಾಯ ಚ ಶತಧನ್ವನೇ ಚ ನಮೋ ಗಿರೀಶರಾಯ ಚ ಶಿಪಿವಿಷ್ಠಾಯ ಚ ನಮೋ ಮೇಧುಷ್ಟಮಾಯ ಚ ಭೂಮತೇಶ ನಮೋ ರಸ್ವಾಯ ಚ ವಾಮನಾಯ ಚ ನಮೋ ಬೃಹತೇ ಚ ವರ್ಧೀಯಸೆ ಚ ನಮೋ ವೃದ್ಧಾಯ ಚ ಸವೃದ್ಧೇ ಚ ನಮೋ ಉಗ್ರ್ಯಾಯ ಚ ಪ್ರಥಮಾಯ ಚ ನಮಃ ಶವೇ ಚ ವೀರಾಯ ಚ ನಮಃ ಶೀಘ್ರಾಯ ಚ ಶೀಭ್ಯಾಯ ಚ ನಮ ಊರ್ಮ್ಯಾಯ ಚ ವಸಂಜ್ಞಾಯ ಚ ನಮೋ ನಾಡೇಯಾಯ ಚ ವೀಪ್ಯಾಯ ಚ ನಮೋ ನಮೋ ಜ್ಯೇಷ್ಠಾಯ ಚ ಕನಿಷ್ಠಾಯ ಚ ನಮಃ ಪೂರ್ವಜಾಯ ಚ ಪರಜಾಯ ಚ ನಮೋ ಮಧ್ಯಮಾಯ ಚ ಪಗಲ್ಭಾಯ ಚ ನಮೋ ಜಗನ್ಯಾಯ ಚ ಬುಧ್ಯಾಯ ಚ ನಮಃ ಸೋಭ್ಯಾಯ ಚ ಪ್ರತಿಸರ್ಜಾಯ ಚ ನಮೋ ಜಾಮ್ಯಾಯ ಚ ಕ್ಷೇಮ್ಯಾಯ ಚ ನಮಃ ಲೋಕ್ಯಾಯ ಚ ವಸನ್ಯಾಯ ಚ ನಮ ಉರ್ವಜಾಯ ಚ ನಮ್ಯಾಯ ಚ ನಮೋ ವನ್ಯಾಯ ಚ ಕಕ್ಷಾಯ ಚ ನಮಃ ಪ್ರವಾಯ ಚ ಪ್ರತಿಸವಾಯ ಚ ನಮ ಆಶುಗೇನಾಯ ಚ ಚೂರಸಾಯ ಚ ನಮಃ ಚೂರಾಯ ಚ ವಭೇದಿನೇ ಚ ನಮೋ ಬಿಲ್ವಿನೇ ಚ ಗವತಿನೇ ಚ ನಮೋ ಭರ್ವಿನೇ ಚ ವರೋಧಿನೇ ಚ ನಮಃ ಶ್ರುತಾಯ ಚ ಶ್ರುತಸೇನಾಯ ಚ ನಮೋ ದುಂದುಭ್ಯಾಯ ಚ ಹರಂಜಾಯ ಚ ನಮೋ ಕೃಷ್ಣವೇ ಚ ಬ್ರಹ್ಮಶಾಯ ಚ ನಮೋ ನಿಖಂಡಿನೇ ಚ ಬುಧಿಮದೇ ಚ ನಮಸ್ತಿ ಕವೇ ಚಾಯುಧಿನೇ ಚ ನಮಃ ಸ್ವಾಯುಧಾಯ ಚ ಸುಧನ್ವನೇ ಚ ನಮಃ ಶುಕ್ಯಾಯ ಚ ಪಥ್ಯಾಯ ಚ ನಮಃ ಕಾಟ್ಯಾಯ ಚ ನೀಪ್ಯಾಯ ಚ ನಮಃ कुल्याय च सरस्याय च नमो नाधेयाय च वैचन्ताय च नमः गुह्याय च वज्ञाय च नमो विग्र्याय च तप्याय च नमो मेघ्याय च विद्युत्याय च नमो वर्घ्याय च नमो वात्स्याय च रेक्ष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस्ताम्राय च अरुणाय च नमः शङ्खवे च पशुपतये च नम उग्राय च भीमाय च नमो ग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीहसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमस्तीर्घ्याय च कूल्याय च नमः शक्व्याय च भेन्याय च नमः सिकत्याय च प्रभाध्याय च नमः जगोशिलाय च शयनाय च नमः पवर्दिने च पुलस्तये च नम इन्द्राय च प्रवद्याय च नमो व्रज्याय च गोष्ठ्याय च नमस्तव्याय च गेह्याय च नमो व्यध्याय च निवेप्याय च नमः ताड्याय च कव्वरेष्ठाय च नमः सुख्याय च हरिद्याय च नमः पाग्भुसव्याय च रजस्याय च नमो लोप्याय च लप्याय च नम ऊर्याय च सूर्याय च नमः पर्णाय च पर्णसदाय च नम उद्गुरबाणाय च विघ्नते च नम आखिदे च प्रकिदे च नम इकुमभ्यो धनुग्रहश्च वो नमो नमो महागिरिकेभ्यो देवानागोरजयेभ्यो नमो विचिन्वकेभ्यो नमो विक्षिणकेभ्यो नम आनिरहतेभ्यः द्रापे अन्धरत्पदे दरिद्रनीलोहित आसां प्रजानां मेघां पशूनां माभिर्मानो मोचनः किञ्चन ममत इमारुद्राय तव से कवर्दिने क्षयदेराय प्रवरामहे मतिः यथा समतधिपदे चतुष्पदे विश्वं पुष्टङ्ग्रामे अस्मिन्ननातुरं जाते जाते रुद्रशिवा तनोः शिवा विश्वाः भेगदि शिवा रुद्रस्य भेगदि दयानो मृडजीवसे परिणो रुद्रस्य हे त्रिपिणक्तु परिद्वेकस्य दुर्मतिरधायोः अवस्थिरा पघवध्यस्तनुपभिदष्टोकाय तनयाय ऋण मे दुष्टम शिवतम शिवो नः सुमना भव परमे वृक्ष आयुधं निधाय कृतिं वसा न आचर पिनागं विभृदा गहि विङ्गिरद्रविदोहित नमस्ते अस्तु भगवः जाते सहस्रभ्यं हेतयो यमस्मन्निवपन्तु ताः सहस्राणि सहस्रभो बाभो हेतयः तारामीशानो भगवः पराचीना मुखाकृति असंख्याता सहस्राणि ते रुद्रा आदिभूम्याम् एकाग्भुसहस्रयो जनेवधन्वानि तन्वसि अस्मिन् महत्यर्णवेऽन्तरिक्षे भवा अधि एकाग्भुसहस्रयो जनेव धन्वानि तन्वसि नीलग्रेवाः चितिकण्ठा दिवग्भो रुद्रा उपसृताः एकाग्भुसहस्रयो जनेव धन्वानि तन्वसि नीलग्रेवाः चितिकण्ठाः सर्वा अधः क्षमाचराः एकाग्भुसहस्रयो जनेव धन्वानि तन्वसि ये वृक्षे गोषष्मिञ्जरा नीलग्रेवाभिलोहिताः एकाग्भुसहस्रयो जनेव धन्वानि तन्वसि ये भूतानामधिपतयो विशिखातः कवर्दिनः एकाग्भुसहस्रयो जनेव धन्वानि तन्वसि ये पथाम्बधिरक्षय ऐलभ्रधा आयुर्दुधः एकाग्भुसहस्रयो जनेव धन्वानि तन्वसि ये तीर्थानि प्रचरन्ति श्रकाहस्त निखङ्गिनः एकाग्भुसहस्रयो जनेव धन्वानि तन्वसि येऽन्ये कोऽपि विद्यन्ति पात्रे कोऽपिवतो जनान्य एकाग्भुसहस्रयो जनेव धन्वानि तन्वसि एतावन्तश्च भूयाद्भुतस्य दिशो रुद्राविदस्थिरे एकाग्भुसहस्रयो जनेव धन्वानि तन्वसि नमोऽस्तु रुद्रेभ्यो जेति विजेखम् वरिखमिखमः एभ्यो दश प्राचेर्दश दक्षिण दश प्रचेतिर्दशोतेर्दशोर्द्वाः तेभ्यो नमो अस्तु तेन वन्तु तेन मृणयन्तु ते जन्यखमो यश्च नो जेष्ठितमेखाञ्जम्भेदधमः नमोऽस्तु रुद्रेभ्यो जेऽन्तरिक्षे जेखां वातैखवः तेभ्यो दश प्राजेर्दश दक्षिण दश प्रजेति दशो चेतिर्दशोर्ध्वाः तेभ्यो नभो अस्तु तेन वन्तु तेन मृणयन्तु ते जन्यखो यश्च नो भेटितमे काञ्जं भेदन्मः नमोऽस्तु रुद्रेभ्यो जे पृथिव्यां जेकामन्नमिखवः तेभ्यो दश प्राचेर्दश दक्षेण दश प्रजेतिर्दशो चेतिर्दशो द्वाः तेभ्यो नमो अस्तु तेन वन्तु तेन मृणयन्तु ते जन्यखमो यश्च नो जेचित मे काञ्जम्भे जधमः
हरिः ॐ न वयग्भो सोमव्रते तव मनस्तनु कुविव्रतः प्रजावन्तः सचेमहि एकते रुद्रभागः सहस्वश्राम्बिकया तञ्जुखस्वस्वा ऐकते रुद्रभाग आकुष्टे पशुः अवरुद्रमदि मह्यवदेवान्त्रम् यथा नो वश्य संस्करत्यथा नः श्रेयसस्करद्यथानो व्यवसाययात वेखजमसि वेखजङ्गभेत्वा यपुरुखाय भेखजम्ब सुखं वेखाय मेक्षै त्र्यम्बकं जजामहे सुगन्धिं पुष्टिवर्धनं मम उर्वारुकमिव बन्धनान् मृत्योर्मुक्षेयमां मृतात त्र्यम्बकं जजामहे सुगन्धिं पतिवेदनं मम उर्वारुकमिव बन्धनादितो मुखे यवामुतहम् एतत्ते रुद्रवसन्तेन परो मूजवतोतिहिम् अवततधन्वापि न कवसः ऋद्धिवास अहि गोसन्नः शिवोतिहिम् प्रायुखं जमदग्नेः तस्य पश्यत्रायुखं यद्देवे कुत्रायुखं तन्नो अस्तु त्रायुखं शिवो नाम शिष्वधितिष्ठे पिता नमस्ते अस्तु माम हिग्गोचेः निवर्तजाम्यायुखेनाध्याय प्रजनना यदाय स्वोका यसु प्रजास्वाय सुवीर्याय हरे ओं उग्रश्च भीमश्च ध्वान्तश्च धुनिश्च सासंभाश्चाभियुग्मा च विक्षिपाः स्वाहा अग्निगोहृदयेनासनिगोहृदयाग्ने न पशुपतिं कृष्णहृदयेन भवञ्जज्ञा सर्वं मतस्नाभ्यामीशानं मन्युना महादेवमन्तः परसव्येनोग्रं देवं वनिष्ठुना वसिष्ठहनुः शिङ्गेष्णिकोशाभ्यां उग्रं दोहितेन मित्रगोसौ व्रत्ये न रुद्रं दौ व्रत्ये नेन्द्रं प्रक्रीडे न मरुतो बधेन साध्यान्त्रमुदा भवस्य कञ्चको रुद्रजान्तः पारस्वं महादेवश्च जगच्छर्वस्य वनिष्ठुः पशुपतेः पुरे तत दोमभ्यः स्वाहा दोमभ्यः स्वाहा त्वचे स्वाहा त्वचे स्वाहा लोहिताय स्वाहा लोहिताय स्वाहा मेदोभ्यः स्वाहा मेदोभ्यः स्वाहा माघुतेभ्यः स्वाहा माघुतेभ्यः स्वाहा नावभ्यः स्वाहा स्नावभ्यः स्वाहा स्थभ्यः स्वाहा स्थभ्यः स्वाहा मज्जभ्यः स्वाहा मज्जभ्यः स्वाहा रेतसे स्वाहा पायवे स्वाहा आयासाय स्वाहा प्रायासाय स्वाहा संजासाय स्वाहा।